इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अन्ताराष्ट्रिय महिला दिवसस्य अवसरे कार्यबले महिलानाम् अधिक सहभागितायै आह्वानं कृतवती। तयोक्तं यत् भारतं जगतः तृतीयां बृहत्तमार्थव्यवस्थां भवितुम् अग्रे गच्छदस्ति। प्रधानमन्त्रिणा गुजरातस्य नवसारी क्षेत्रे लखपति दीदी सम्मेलनावसरे सार्ध द्वि लक्षाधिक महिलाभ्यः सार्ध चतुश्शत कोटि रूप्यकाणि वितरितानि। दिल्ली प्रशासनेन निर्धन महिलानां कृते सार्ध द्विसहस्र रूप्यकाणि प्रदातुं महिला समृद्धि योजना अनुमोदिता। युक्रेन देशे रात्रौ विहिते रूस देशस्य आक्रमणे 14 जनाः मृताः। अपि च तेहरान नगरे आयोजितायां षष्ट्यां एशिया महिला कबड्डी प्रतियोगितायां भारतेन विजयोऽधिगतः। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिनोक्तं यत् प्रशासनं महिला सशक्तीकरणाय समर्पितमस्ति। अमुना महिलानां जीवनोन्नयनाय विहिताः महत्वपूर्ण पदक्षेपाः उपस्थापिताः। अद्य अन्ताराष्ट्रिय महिला दिवसस्य अवसरे गुजरातस्य नवसारी जनपदे लखपति दीदी इतीदं सम्मेलनं सम्बोधयन् श्रीमोदी अवोचत् यत् भारतं महिला नेतृत्वयुते विकासपथि अग्रेसरं वर्तते।
नारी का सम्मान यही समाज और देश के विकास की पहली सीढ़ी होती है। इसलिए विकसित भारत बनाने के लिए, भारत के तेज विकास के लिए आज भारत विमेन लेड डेवलपमेंट की राह पर चल पड़ा। हमारी सरकार महिलाओं के जीवन में सम्मान और सुविधा दोनों को सर्वोच्च प्राथमिकता देती है।
अवधेयं वर्तते यत् आदेशे महिलासु उद्यमशीलतां वित्तीय सशक्तीकरणं च समेधितुं तेन 23-2000 वर्षे लखपति दीदी इत्याख्या योजना समारब्धा। अस्याः योजनायाः कृषि पशुपालन लघुद्योग सदृशेभ्यः विविध स्रोतेभ्यः न्यूनातिन्यूनम् 1,00,000 रूप्यकाणां वार्षिकाय युतानां स्वयं सहाय्य समूहानां महिला सदस्येभ्यः लखपति दीदी रूपेण मान्यता प्रदीयते। ताभिः प्रशासनात् आर्थिक साहाय्येन समं व्यावसायिकं प्रशिक्षणम् अपि प्राप्यते। गुजराते 1,50,000 महिलाः सम्प्रति लखपति दीदी इत्येतस्य स्थानं सम्प्राप्य प्रतिवर्षं 1,00,000 च वार्षिकायं प्राप्नुवन्ति। अत्रावधौ प्रधानमन्त्री 25,000 स्वयं सहाय्य समूहानां महिलाभ्यः 14,00,000 रूप्यकाणां वित्तीय सहायतां वितरितवान्। प्रधानमन्त्री 5,00,000 दीदी इत्येताभ्यः महिलाभ्यः लखपति दीदी प्रमाणपत्राणि अपि प्रदत्तवान्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अन्ताराष्ट्रिय महिला दिवसावसरे कार्यबले महिलानाम् अधिक सहभागितायै आह्वानं कृतवती। तयोक्तं यत् भारतं जगतः तृतीयां बृहत्तमार्थव्यवस्थां भवितुम् अग्रे गच्छदस्ति।
आज जो भारत विश्व की तीसरे सबसे बड़ी अर्थव्यवस्था बनने की ओर अग्रसर हो रहा है, तो देश के वर्कफोर्स में महिलाओं की भागीदारी तेजी से बढ़नी चाहिए। वर्कफोर्स में महिलाओं की भागीदारी बढ़ने के लिए उन्हें शिक्षा और नौकरी से समान अवसर प्रदान करना महत्वपूर्ण है।
राष्ट्रपति अद्य नवदिल्ल्यां अन्ताराष्ट्रिय महिला दिवसमुपलक्ष्य नारी शक्ति से विकसित भारत इत्यभिनामधेयकस्य एकदिवसीय सम्मेलनस्य उद्घाटनावसरे उक्तवती यत् देशस्य तनयाः विकसित भारतस्य स्वप्नं पूरयितुं महत्वपूर्णां भूमिकां निभालयन्ति। राष्ट्रपतिना महिलानां प्रगतौ सहयोगावसर सृजने समाजस्य भूमिका सबलं प्रतिपादिता। राष्ट्रपतिः अवोचत् यत् लोकसभायां राज्यविधानसभासु च नारीशक्तिवन्दनाधिनियमस्य महिलारक्षणस्य प्रावधानम् ऐतिह्यं वर्तते। तयोक्तं यत् अन्ताराष्ट्रिय महिलादिवसः महिलानाम् अमूल्ययोगदानं सम्मानयितुम् अथ च पुरुषसमानतां च दृढयितुम् अवसरो वर्तते। केन्द्रीय मन्त्री अर्जुन राम मेघवाल, महिला बाल विकास मन्त्री अन्नपूर्णा देवी च अस्मिन् अवसरे उपस्थितौ अवर्तताम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। दिल्ली प्रशासनेन निर्धन महिलानां कृते ₹2,500 प्रदातुं महिला समृद्धि योजना अनुमोदिता। दिल्ल्याः मुख्यमंत्री रेखा गुप्ता अद्य राष्ट्रिय राजधान्यां वार्ताहर सम्मेलने ए घोषणां कृतवती। सा अवोचत् यत् अन्ताराष्ट्रिय महिला दिवसावसरे दिल्ली शासनस्य मन्त्रिमण्डलस्य एका सभा समायोजिता, यस्मिन् इयं योजना अनुमोदिता। सा इत्यपि अवोचत् यत् योजनायाः कार्यान्वयनार्थं 150 शतकोटि रूप्यकाणां वित्तीय व्यय व्यवस्था कृतास्ति इति।
चुनाव के अपने संकल्प पत्र में दिल्ली की बहनों से जो वायदा हमने महिला समृद्धि योजना के तहत किया था कि दिल्ली की गरीब बहन को ₹2,500 प्रति माह देने की बात, आज उसको हमने कैबिनेट में मोहर लगा दी है। एक पोर्टल बना करके इसके रजिस्ट्रेशन शुरू हो और इसकी टर्म्स एंड कंडीशन इत्यादि पे गहन चर्चा करके उसको तुरंत काम को शुरू किया जाएगा।
प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्ताराष्ट्रिय महिला दिवसावसरे अद्य स्वस्य सोशल मीडिया एकाउण्ट इति सामाजिक सञ्चार पटलस्य सञ्चालनं महिलाभ्यः प्रदत्तमस्ति। प्रधानमन्त्रिणा सामाजिक सञ्चार पटले उक्तं यत् अद्य प्रातः एव विशिष्ट महिलाभिः स्वस्य अन्य महिलानां च प्रेरकानुभवाः सहक्रियन्ते। तेनोक्तं यत् देशस्य विविधभागेषु आभिः महिलाभिः विविधक्षेत्रेषु उत्कृष्टता प्राप्ता, याः हि देशस्य नारीशक्तेः प्रतीकस्वरूपाः वर्तन्ते। प्रधानमन्त्रिणः सोशल मीडिया एकाउण्ट इत्यत्र डॉ अंजलि अग्रवालः अवोचत् यत् सा परिवर्तन ज्योति प्रज्वालनाय राष्ट्रस्य आह्वानं कर्तुमिच्छति। डॉ अग्रवालः समर्थ्यम् इत्येतस्य सुगम्यता केन्द्रस्य संस्थापिका वर्तते। परमाणु वैज्ञानिकः एलिना मिश्रा, अन्तरिक्ष वैज्ञानिकः शिल्पी सोनी इत्युभाभ्याम् उक्तं यत् महिला दिवसावसरे प्रधानमन्त्रिणः सोशल मीडिया एकाउण्ट इत्यस्य संचालनं रोमाञ्चकम् अस्ति। केन्द्रीय स्वास्थ्य मन्त्रिणा जगत्प्रकाश नड्डा इत्यमुना समुद्घोषितं यत् प्रशासनं आगामीषु 5 वर्षेषु चिकित्सा शिक्षायां इतोपि 75,000 नवीनानि स्थानानि समेधितुं विचारयति। श्रीनड्डाः अद्य नवदिल्ल्याः भारतमण्डपे आयोजितायाः अन्ताराष्ट्रिय स्वास्थ्य प्रौद्योगिकी मूल्यांकन संगोष्ठ्याः औद्घाटनिकं सत्रं सम्बोधयनासीत्। विदेशमन्त्रिणा डॉ एस जयशंकरेण ह्यः रात्रौ उत्तरीयायरलैण्ड देशस्य बेलफास्ट इत्याख्ये स्थाने भारतीय वाणिज्य दूतावासः समुद्घाटितः। अत्रावसरे अनेनोक्तं यत् वाणिज्य दूतावासोऽयं भारतीय समुदायस्य आवश्यकताः पूरयिष्यति। असौ अग्रे अवोचत् यत् बेलफास्ट राजधान्यां समुद्घाटितः एषः दूतावासः व्यापार प्रौद्योगिकी व्यवसाय शिक्षा चेत्यादिषु क्षेत्रेषु द्विपक्षीय सहयोगं प्रवर्धयितुं सम्भावनाः अन्वेषयिष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः श्वः मध्याह्ने 12:30 भविष्यति। कृपया शृण्वन्तु। अमेरिकादेशीयेन राष्ट्रपतिना डोनाल्ड ट्रम्प इत्येतेन कनाडादेशः तस्य काष्ठदुग्धोत्पादेषु नवीन प्रशुल्काय प्रत्यादिष्टः। असौ व्हाइट हाउस इत्येतस्य सदनस्य ओवल ऑफिस इत्यत्र वार्ताहर सम्मेलने सूचितवान् यत् अमेरिकीय दुग्धोत्पादेषु कनाडादेशस्य शुल्कं 250% संवर्धितमस्ति, यद्धि अनुचितमस्ति। विमेन्स प्रीमियर लीग इत्येतस्यां क्रिकेट मालिकायाम् अद्य सायंकाले रॉयल चैलेंजर्स बैंगलूरु यूपी वॉरियर्स इत्यनयोर दलयोर्मध्ये सामुख्यं भविष्यति। प्रतिस्पर्धायाः अस्याः प्रसारणं 7:30 भविष्यति। तेहरान नगरे आयोजितायां षष्ट्यां एशिया महिला कबड्डी प्रतियोगितायां भारतेन विजयो समधिगतः इति वार्ताः।